इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका मुदिता वेतालः। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना एकेन सामाजिक संचार माध्यमेन प्रतिपादितं यत् मेक इन इण्डिया इत्यनया परियोजनया वैश्विक पटले भारतीय अर्थव्यवस्थायाः वृद्धिः द्रष्टुं शक्यते। सर्वकारेण संसदः वित्त संकल्पना सत्रात् पूर्वं रविवासरे सर्वदलीयं उपवेशनम् आहूतमस्ति। ओमानस्य तटे तैलवाहकपोतस्य निमज्जेन 13 भारतीयान् 3 श्रीलंकादेशीयान् च समेत्य चालकदलस्य समेपि 16 सदस्याः विलुप्ताः सन्ति। अद्य मुहर्रम विद्यते। अयम् दिवसः पैगम्बर मुहम्मदस्य पौत्रस्य हजरत इमाम हुसैन इत्यस्य वीरतायाः प्रतीकस्वरूपः अस्ति। अपि च स्वीडिश मुक्त टेनिस क्रीडा स्पर्धायां पुरुषैकल द्वन्द्वे 32 चक्रे भारतस्य सुमित नागलस्य मुखामुखी एलियास यमीर इत्यमुना समं श्वः भविष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना एकेन सामाजिक संचार माध्यमेन प्रतिपादितं यत् मेक इन इण्डिया इत्यनया परियोजनया वैश्विक पटले भारतीय अर्थव्यवस्थायाः वृद्धिः द्रष्टुं शक्यते। सः सामाजिक संचार पटले एतस्य वृद्धेः किञ्चित् प्रमाणम् अपि दत्तवान्। तेन लिखितं यत् इदानीं भारतीय द्विचक्रिकायाः अभ्यर्थना अखिले हि विश्वे भवति। ब्रिटेन जर्मनी नीदरलैंड देशेषु निर्यातक क्षेत्रे वृद्धिः अभवत्। एतेन अन्ताराष्ट्रिय आपणेषु भारतस्य वर्धमान प्रभावस्य पुष्टिः भवति। प्रधानमन्त्रिणा लिखितं यत् साम्प्रतं बिहार राज्ये निर्मितानां पादत्राणानां प्रयोगः रूसदेशस्य सैन्यबलैः क्रियते। एतदतिरिच्य प्रधानमन्त्री प्रोक्तवान् यत् क्रिकेट विश्व चषक प्रतिस्पर्धायाः आसन्ने कश्मीरे निर्मितानां क्रिकेट काष्ठ वल्लीनां याचनायामपि तीव्र वृद्धिः अभवत्। इमाः वल्लयः भारतस्य उत्कृष्ट शिल्प कौशलस्य अन्ताराष्ट्रिय क्रिकेट परिदृश्ये च देशस्य महत् प्रभावस्य उदाहरणं प्रदर्शयन्ति। सः उक्तवान् यत् अमेरिका देशे अमूल इति संस्था भारतस्य दुग्ध उत्पादानाम् आस्वादनम् अखिलं विश्वं कारयति। भारतस्य यूपीआई इति वित्तीय हस्तांतरण प्रणाली अधुना तु वैश्विक प्रणाली रूपेण प्रसिद्धा अस्ति। अनया नैकेषु देशेषु निर्बाध रूपेण अन्तर्जालीय माध्यमद्वारा धनस्य हस्तांतरण सौविध्यम् अभवत्। प्रधानमन्त्री कथितवान् यत् भारत रूस देशयोः संयुक्तोद्यमेन निर्मितं ब्रह्मोस इति प्रक्षेपास्त्रम् इदानीं दक्षिण चीन समुद्रे नियोजितमस्ति। अयं विकासः भारतस्य सामरिक रक्षा क्षमता वैश्विक सुरक्षायाः संवर्धने च राष्ट्रस्य महत् भूमिकायां बलं प्रददाति। प्रधानमन्त्री नरेन्द्रमोदी अद्य आषाढमासस्य एकादशी इत्यस्याः अवसरे जनान् वर्धापनानि दत्तवान्। सामाजिक संचार माध्यमेन प्रधानमन्त्रिणा शुभकामनाः प्रदत्ताः यत् भगवतः विठ्ठलस्य कृपया समाजे सर्वे जनाः सुखिनः समृद्धिशालिनः च भवेयुः। सर्वकारेण संसदः वित्त संकल्पना सत्रात् पूर्वं रविवासरे सर्वदलीयं उपवेशनम् आहूतमस्ति। उपवेशनस्य अवधौ प्रशासनं संसदः सदनद्वयस्य सुचारुतया कार्याचरणाय सर्वेभ्यः राजनीतिकदलेभ्यः सहयोगस्य अनुरोधं करिष्यति। वित्त संकल्पना सत्रम अस्य मासस्य द्वाविंशति दिनात् अगस्त मासस्य द्वादश दिनांकम् यावत् चलिष्यति। केन्द्रियम् आय व्यय विवरणम् जुलाई त्रयोविंशे प्रस्तोष्यते। इदं हि नरेन्द्र मोदिनः नेतृत्व युतस्य प्रशासनस्य तृतीय कार्यकालस्य प्रथमं वित्त संकल्प पत्रम् भविष्यति। विगते मासे राष्ट्रपतिः द्रौपदी मुर्मू वर्या संसदः उभयोः सदनयोः संयुक्त उपवेशनं सम्बोधयन्ती अवोचत् यत् इदं वित्त संकल्प पत्रं प्रशासनस्य दूरगामी नीतिनाम् अथ च भावि दृष्टिकोणस्य प्रभावी प्रपत्रं भविष्यति। स्वास्थ्य मंत्री जगत प्रकाश नड्डा अद्य नवदिल्ल्यां केन्द्रीय औषधि मानक नियंत्रण संगठनस्य अधिकारिभिः सह एकं समीक्षोपवेशनम् अकरोत्। उपवेशनस्य समये स्वास्थ्य सचिवः अपूर्व चंद्रा अथ च अन्ये वरिष्ठाधिकारिणः उपस्थिताः अभवन्। केन्द्रीय औषधि मानक नियंत्रण संगठनम् देशे औषध चिकित्सोपकरणानां सौन्दर्य प्रसाधनानां च गुणवत्तां सुरक्षां च नियन्त्रयति। श्रीमता नड्डावर्येण अस्य मासस्य आरम्भे राष्ट्रिय स्वास्थ्य प्राधिकरणस्य वरिष्ठाधिकारिभिः सह आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना अथ च आयुष्मान भारत डिजिटल मिशन इत्येषाम् अपि समीक्षा कृतासीत्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। विदेश मंत्रिणा डॉक्टर एस जयशंकरेण अद्य मॉरिशियस देशस्य पूर्व प्रधानमंत्रिणा नवीन राम गुलाम इत्यनेन अथ च पॉल बेरेंजर इत्यमुना सह मेलनं कृतम्। डॉक्टर राम गुलामेन सह मेलनावसरे डॉक्टर जयशंकरेण स्थायी द्विपक्षीय सहयोग संवर्धनाय प्रतिबद्धता प्रकटिता। ओमानस्य तटे तैल वाहक पोतस्य निमज्जयेन त्रयोदश भारतीयान् त्रयः श्रीलंका देशीयान् च समेत्य चालक दलस्य समेपि षोडश सदस्याः विलुप्ताः सन्ति। ओमानस्य समुद्र सुरक्षा केन्द्रस्य अनुसारं प्रेस्टिज फाल्कन नाम्नः पोतः ओमानस्य औद्योगिक पोत पत्तन दुकमस्य निकषा निमज्जितः। अयं पोतः यमनस्य अदन पोत पत्तनं प्रति प्रस्थितः। ओमानस्य अधिकारिभिः सामुद्रिक अधिकारिभिः सह पोतस्य अन्वीक्षणं साहाय्योद्धार कार्यं च आरब्धम्। अद्य मुहर्रम विद्यते। अयं दिवसः पैगंबर मोहम्मदस्य पौत्रस्य हजरत इमाम हुसैन इत्यस्य वीरतायाः प्रतीकस्वरूपः अस्ति। तेन कर्बलातायां सत्यस्य कृते निज प्राणाहुतिः कृतासीत्। अत्रावसरे ताजिया यात्राः विधीयन्ते। देशस्य पृथक् पृथक् भागेषु इमाः यात्राः निध्याय आरक्षि विभागेन यातायात परामर्शः प्रसारितः। देशे सर्वत्र सुरक्षायाः व्यापक प्रबन्धाः कृताः। स्वीडिश मुक्त टेनिस क्रीडा स्पर्धायां पुरुषैकल द्वन्द्वे द्वात्रिंशे चक्रे भारतस्य सुमित नागलस्य मुखामुखी एलियास यमीर इत्यमुना समं श्वः भविष्यति। पुरुष युगल क्रीडायां भारतस्य सुमित नागलस्य पोलैंड देशस्य च करोल ड्रेज विक्की इत्यस्य युगलं फ्रांस देशस्य एलेक्जेंडर मुलरस्य लुकावान एश इत्यस्य च युगलेन साकं योत्स्यति। इति वार्ताः।